ओम नमो भगवते वासुदेवाय। अथैकत्रिंशोऽध्यायः। श्री भगवानुवाच। कर्मणा दैव नेत्रेण जन्तुर्देहोपपत्तये स्त्रिया प्रविष्ट उदरम् पुंसोरेतः कणाश्रयः करलम् त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् दशाहेन तु कर्कन्धूः पेष्यण्डम् वा ततः परम् मासेन तु शिरोद्वाभ्याम् बाह्वङ्ग्र्याद्यङ्गविग्रहः नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्रिडुद्भवः षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते शेते विण्मूत्रयोर्गर्ते सजन्तुर्जन्तुसम्भवे कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् मूर्छामाप्नोत्युरुक्लेशस्तत्रत्यैक्षुदितैर्मुहुः करुतीक्ष्णोष्णलवण रूक्षाम्लादिविरुल्बणैः मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः उल्बेण संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः अकल्पः स्वाङ्गचेष्टायाम् शकुन्त इव पञ्जरे तत्र लब्धस्मृतिर्दैवात् कर्मजन्मशतोद्भवम् स्मरन् दीर्घमनुच्छ्वासम् शर्म किम् नाम विन्दते आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः नैकत्रास्ते सूतिवातैर्विष्टा भूरिव सोदरः नाथमानऋषिर्भीतः सप्तवद्रिः कृताञ्जलिः स्तुवीततम् विक्लवया वाचा येनोदरेऽर्पितः जन्तुरुवाच तस्योपसन्नमवितुम् जगदिच्छयात्त नानातनोर्भुवि चलच्चरणारविन्दम् सोऽहम् व्रजामि शरणम् यकुतोभयम् मे येनेदृशी गतिर्दर्श्यसतोऽनुरूपा यस्त्वत्र बद्धैव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदये वसितम् नमामि य पञ्चभूतरचिते रहितः शरीरेच्छन्नो यथेन्द्रियगुणार्थचिदात्मकोऽहम् तेनाविकुण्ठमहिमानमृषिम् तमेनम् वन्दे परम् प्रकृतिपूरुषयोः पुमांसम् यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पतिचरन् सदभिश्रमेण नष्टस्मृतिः पुनरयम् प्रवृणीतलोकम् युक्त्या कया महदनुग्रहमन्तरेण ज्ञानम् यदेतदधात् कतमः सदेवस्त्रैकालिकम् स्थिरचरेष्वनुवर्तितांशः तम् जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय वयम् भजेम देह्यन्यदेहविवरे जठराग्निना सृक् विण्मूत्रकूपपतितो भृशतप्तदेहः इच्छन्नितो विवसितुम् गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु येनेदृशीम् गतिमसौ दशमास्य ईश सङ्ग्राहितः पुरुदयेन भवादृशेन स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत्प्रतिविदाञ्जलिमस्य कुर्यात् पश्यत्ययम् धिषणया ननु सप्तवद्रिः शारीरके दमशरीर्यपरस्वदेहे यत्सृष्टयासम् तमहम् पुरुषम् पुराणम् पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् सोऽहम् वसन्नपि विभो बहु दुःखवासम् गर्भान्न निर्जिगमिषे बहिरन्धकूपे यत्रोपयातमुपसर्पति देवमाया मिथ्या मतिर्यदनुसंसृतिचक्रमेतत् तस्मादहम् विगतविक्लव उद्धरिष्य आत्मानमासु तमसः सुहृदात्मनैव भूयो यथा व्यसनमेतदनेकरन्ध्रम् मा मे भविष्यदुपसादितविष्णुपादः कपिल उवाच एवम् कृतमतिर्गर्भे दशमास्यः स्तुवन् ऋषिः सद्य क्षिपत्यवाचीनम् प्रसूत्यै सूतिमारुतः तेनावसृष्टः सहसा कृत्वा वाक्षिरातुरः विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः पतितो भूव्य शृङ्मूत्रे विष्टा भूरिव चेष्टते रोरूयति गते ज्ञाने विपरीताम् गतिम् गतः परच्छन्दम् न विदुषा पुष्यमाणो जनेन सह अनभिप्रेतमापन्न प्रत्याख्यातुमनीश्वरः शायितो शुचिपर्यङ्के जन्तो स्वेदजदूषिते नेषःकण्डूयनेङ्गानामासनोत्थानचेष्टने तुदन्त्यामत्वचम् दंशामशकामत्कुणादयः रुदन्तम् विगतज्ञानम् कृमयः कृमिकम् यथा इत्येवम् शैशवम् भुक्त्वा दुःखम् पौगण्डमेव च अलब्धाभीप्सितो ज्ञानादिद्धमन्युषु चार्पितः सह देहेन मानेन वर्धमानेन मन्युना करोति विग्रहम् कामी कामिष्वन्ताय चात्मनः भूतै पञ्चभिरारब्धे देहे देय्यबुधोऽसकृत् अहम् ममेत्य सद्ग्राहः करोति कुमतिर्मतिम् तदर्थम् कुरुते कर्म यद्बद्धो याति संसृतिम् योनु याति ददत्क्लेशमविद्या कर्म बन्धनः यद्यसद्भिः पथि पुनः शिष्णोदर कृतोद्यमैः आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् सत्यम् शौचम् दया मौनम् बुद्धिः श्रीर्हीर्यशः क्षमा समोदमो भगश्चेति यत्सङ्गाद् याति संक्षयम् तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु सङ्गम् न कुर्याच्छोच्येषु योषित्क्रीडा मृगेषु च न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः प्रजापतिस्वाम् दुहितरम् दृष्ट्वा तद्रूपधर्षितः रोहितभूताम् सोऽन्वधावत् वृक्षरूपी हतत्रपः तत्सृष्टसृष्टसृष्टेषु कोऽन्वखण्डितधीः पुमान् ऋषिम् नारायणमृते योऽसिन्मय्येह मायया बलम् मे पश्य मायाया स्त्रीमय्या जैनो दिशाम् या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् सङ्गम् न कुर्यात्र मदा सुजातु योगस्य पारम् परमारुरुक्षुः मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य योपयाति शनैर्माया योषिद्देव विनिर्मिता तामीक्षेतात्मनो मृत्युम् त्रिणैकूपमिवावृतम् याम् मन्यते पतिम् मोहान् मन्मायाम् ऋषभायति स्त्रीत्वम् स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् तामात्मनो विजानीयात् पत्यपत्यगृहात्मकम् दैवोपसादितम् मृत्युम् मृगयोर्गायनम् यथा देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् भुञ्जान एव कर्माणि करोत्यविरतम् पुमान् जीवो यस्यानुगो देहो भूतेन्द्रियमनोमयः तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः द्रव्योपलब्धिस्थानस्य द्रव्येक्षा योग्यता यदा तत्पञ्चत्वमहम् मानादुत्पत्तिर्द्रव्यदर्शनम् यथा क्ष्णोर्द्रव्यावयव दर्शना योग्यता यदा तदेव चक्षुषो द्रष्टृत्वा योग्यता नयोः तस्मान्न कार्यः सन्त्रासो न कार्पण्यम् न सम्भ्रमः बुद्ध्वा जीवगतिम् धीरो मुक्तसङ्गश्चरेदिह सम्यक् दर्शनया बुद्ध्या योगवैराग्ययुक्तया माया विरचिते लोके चरेण्यस्य कलेवरम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नामैकत्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।